इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः डाक्टर् गणेश हेगडे। अथ वार्ताः। प्रधानमन्त्री श्रीनरेन्द्रमोदी अद्यारभ्य जॉर्डन, इथियोपिया, ओमानदेशानां यात्रायां भविष्यति। यात्रायाः प्रथमचरणे श्रीमोदी राज्ञः अब्दुल्लाह द्वितीय बिन अल हुसैनस्य आमन्त्रणेन जॉर्डन देशं गमिष्यति। तत्र श्रीमोदी जॉर्डन भारतयोः सम्बन्धानां सम्पूर्णपरिधिसमीक्षाम् अथ क्षेत्रीयविषयेषु दृष्टिकोणानाम् आदानप्रदानञ्च करिष्यति। प्रधानमन्त्री श्वः इथियोपिया देशं गमिष्यति। अन्तिमपदे प्रधानमन्त्री ओमानदेशं गमिष्यति, यत्र हि द्वयोः देशयोः कूटनीतिकसम्बन्धस्य स्थापनायाः 70 वर्षाणि पूर्णानि भवन्ति। उपराष्ट्रपतिः सीपी राधाकृष्णन् वर्यः ह्यः सम्राट् पेरम्बिडुगु मुत्तारायर् द्वितीयस्य सम्मानार्थं स्मारक डाक चीटिकां विमोचितवान्। अवसरेऽस्मिन् सम्भाषणं कुर्वन् श्रीराधाकृष्णन् महोदयः तमिल संस्कृतेः भाषायाः च विषये प्रशासनस्य निरन्तरं साहाय्यं प्रशंसितवान्। सम्राट् पेरम्बिडुगु मुत्तारय्यर् द्वितीयस्य सम्मानार्थं पोस्टल स्टाम्प् इति पत्रालयचीटिकायाः विमोचनविषये प्रधानमन्त्री श्रीमोदी आनन्दं प्राकटयत्। उपराष्ट्रपतिः सीपी राधाकृष्णन् वर्याय सामाजिकमाध्यमेन उत्तरे प्रधानमन्त्रिणा उक्तं यत् सम्राट् पेरम्बिडुगु मुत्तारय्यरः उल्लेखनीयदृष्टिकोणेन, दूरदर्शितया, रणनीतिकतेजसा च धन्यः उत्तमः प्रशासकः आसीत्। सः न्याये स्वसमर्पणेन प्रसिद्धः आसीत्, तमिलसंस्कृतेः उल्लेखनीयः संरक्षकः च आसीत्। श्रीमोदी तस्य असाधारणजीवनस्य विषये अध्येतुं युवकानाम् आह्वानमपि कृतवान्। भारतीयजनतापार्टीति दलस्य कार्यकारिसमित्या तत्कालप्रभावेण वरिष्ठदलनेता श्रीनितिननबिनः राष्ट्रियकार्याध्यक्षरूपेण नियुक्तः। नितिननबिनः सम्प्रति बिहारसर्वकारे मन्त्रिरूपेण कार्यं कुर्वन् अस्ति। प्रधानमन्त्री तथा भाजपावरिष्ठनेता नरेन्द्रमोदी भाजपादलस्य कार्याध्यक्षरूपेण नियुक्तस्य नितिननबिनस्य कृते अभिनन्दनं कृतवान्। भारतीयरेल्वेप्राधिकरणेन प्रायः सम्पूर्णे ब्राड्गेज्जाले विद्युत्करणं कृतमस्ति, यत्र हि 25 राज्येषु, केन्द्रीयप्रदेशेषु च ऊनशतं प्रतिशताधिकं विद्युत्करणं सम्पन्नम्। रेलमन्त्रालयेन सूचितं यत् 2000-अब्दस्य ऊनविंशतितः 25-पर्यन्तं 33,000 किलोमीटर्तः अधिकः मार्गः विद्युत्प्रवाहितः अभवत्। मन्त्रालयेन सूचितं यत् केवलम् अस्मिन् काले विद्युत्कृतं सम्पूर्णं दूरं जर्मनीदेशस्य सम्पूर्णस्य रेलमार्गजालस्य प्रायः तुलनायां समानम् अस्ति, यद्धि स्वच्छकुशलरेलकर्षणस्य विस्तारीकरणस्य देशस्य परिमाणं दर्शयति। पश्चिमबंगालराज्ये शनिवासरे लियोनेल मेस्सी इत्यस्य क्रीडाङ्गणात् प्रस्थानानन्तरं अराजकतायाः अथ अग्निघटनासम्बद्धावसरे सेवानिवृत्तन्यायाधीशस्य आशिवकुमार रे इत्यस्य नेतृत्वे अन्वेषणसमितेः सदस्याः साल्ट लेक इत्यत्र युवाभारती क्रीडाङ्गणस्य भ्रमणं कृतवन्तः। न्यायाधीशेन प्रोक्तं यत् अधुना अन्वेषणं प्रारम्भिकपदे वर्तते। वायुगुणवत्तायाः दुर्गतेः मध्यं सम्पूर्णे दिल्ली NCR इति राष्ट्रियराजधानीप्रदेशे चरणबद्धप्रतिक्रियाकार्ययोजनायाः GRAP 4 इति चतुर्थचरणं सक्रियम् अस्ति इत्यतः वायुगुणवत्ताप्रबन्धन आयोगेन वायुगुणवत्तायाः इतोऽपि क्षतिं निवारयितुम् अनेकाः उपायाः कृताः सन्ति। GRAP 4 इत्यस्य अन्तर्गतं दिल्लीनगरे अन्यराज्येभ्यः बृहत् वस्तुवाहनानां प्रवेशः प्रतिषिद्धः अस्ति। पुरुषक्रिकेट्क्रीडायां धर्मशालायां पञ्चक्रीडाश्रृङ्खलायाः तृतीय T20 क्रीडायां भारतेन दक्षिणाफ्रिकादलं विरुध्य 7 स्तोपकैः पराजितम् इति वार्ताः।